एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः वदति देशस्य विभिन्नेषु भागेषु विद्यमानानां गुठी प्रभृतीनां सर्वासां भूमिनां समस्याः समाधातुं सर्वकारः गभीरो वर्तते। प्रतिनिधिसभायाः ह्यस्तनोपवेशे सांसदैः उत्थापितान् प्रश्नान् उत्तरयन् प्रधानमन्त्री प्रचण्डः विभिन्नानाम् आयोगानां परामर्शान् स्वीकृत्य पीडितानां जनानां समस्याः स्थायीरूपेण समाधानाय सर्वकारः प्रतिबद्ध अस्तीति अज्ञापयत्। तदवसरे प्रधानमन्त्री प्रचण्डः संविधानस्य विपरीतं कार्य कुर्वतः धार्मिक सामाजिक सद्भावस्य प्रतिकूलतया कार्यं कुर्वतश्च जनान् गतिविधिन् वा नियन्त्रणाय सर्वकारः सर्वविधम् उपायम् अवलम्बयतीति समस्पष्टयत्। एवमेव थारू प्रभृतीनाम् आर्थिक रूपेण विपन्नानां जनानां परिचयं संस्थाप्य आर्थिक सशक्तिकरणस्य माध्यमेन समुदायस्य अधिकारं सुनिश्चितं कर्तुमपि सर्वकारः प्रतिबद्ध अस्तीति चर्चयन् प्रधानमन्त्री प्रचण्डः तदनुरूपेणैव आवधिक योजनाः वार्षिक नीति कार्यक्रमाश्च आनीताः सन्ति आयव्ययकस्य व्यवस्था च कृता अस्तीति अज्ञापयत्। एवमेव प्रधानमन्त्रिणा प्रचण्डेन आत्मनः भारत भ्रमणस्य विषयेऽपि ज्ञापयता भारतस्य प्रधानमन्त्रिणः शपथग्रहण समारोहे नेपालस्य प्रधानमन्त्रिणः उपस्थितेरपि परम्परा अस्तीत्यतः तस्याः एव परम्परायाः अनुसारेण आत्मना भारतस्य भ्रमणं विहितमिति समस्पष्टयत्। प्रतिनिधिसभायाम् आगामिनः आर्थिक वर्षस्य कृते विनियुक्तस्य आयव्ययकस्य विमर्शनस्य क्रमे सांसदैः उत्थापितानां प्रश्नानां सम्बद्ध मन्त्रिभिः उत्तरप्रदानस्य क्रमः सञ्चलनमस्ति। प्रतिनिधिसभायाः ह्यस्तनोपवेशे विमर्शने उत्थापितान् प्रश्नान् उत्तरयन् उद्योग वाणिज्यापूर्ति मन्त्री दामोदर भण्डारी उद्योग वाणिज्यापूर्ति क्षेत्रस्य विकासाय विस्ताराय च नीतिगतं स्थायित्वं कार्यविधिगतं सरलीकरणं च विधाय निवेश मैत्री वातावरणस्य निर्माणाय आत्मनः प्रतिबद्धतां व्यक्तवान्। विमर्शने कृषि पशुपक्षी विकास मन्त्री ज्वाला कुमारी शाह आगामिनि वर्षे रासायनिक मलस्य अभावो यथा नभवति सर्वकारेण तथा कार्ययोजना निर्मिता अस्तीति अभाषत। मन्त्री शाह कृषकै प्राप्तव्यस्य वित्तस्य अभावे सति ऋणं कृत्वापि वित्तं दातुं सर्वकारेण पूर्वकार्यं विधीयमानमस्तीति अवोचत्। उपवेशे भूमि व्यवस्था सहकारी विपन्नता निवारण मन्त्री बलराम अधिकारी भूमिहीनानां समस्यानां समाधानार्थं पञ्चलक्षेभ्य भूमिहीनेभ्य भूस्वामित्व प्रमाणपत्र प्रदानस्य योजना अग्रेसारिता अस्तीति अज्ञापयत्। उपवेशे संचार सूचना प्रविधि मन्त्री रेखा शर्मा प्राकृतिक विपत्तिभ्य सम्भावितानां संकटानां न्यूनीकरणार्थं दूरसंचार सेवा प्रदायकै संचार माध्यमै पूर्व सूचना प्रदीयते इत्यवोचत्। पत्रकाराणां न्यूनतम पारिश्रमिक विषये न्यूनतम पारिश्रमिक निर्धारण समित्या नेपाल पत्रकार महासंघेन सूचना प्रसारण विभागेन प्रेस काउन्सिल नेपाल इति संस्थया च अनुगमनं विधीयमानमस्तीति मन्त्री शर्मा अज्ञापयत्। उपवेशे उत्थापितान् प्रश्नान् उत्तरयन् विधि न्याय संसदीय विषय मन्त्री पदम गिरी न्यायालयेषु रिक्तेषु न्यायाधीश पदेषु यथासमयं नियुक्तिर्भविष्यतीति असूचयत्। न्यायाधीश नियुक्तेः प्रक्रियां निष्पक्ष्यां पारदर्शिनीं च विधातुम् अनुभवीनां विज्ञानां योग्यानां च न्यायाधीशानां नियुक्तिर्विषये न्यायपरिषदि स्पष्टता विद्यते इति चर्चयन् मन्त्री गिरी भविष्ये न्यायाधीश नियुक्तिर्विषये प्रश्नस्य अवसरो न भवति तथा कार्यं विधीयते इति अवोचत्। एतत्पूर्वं प्रतिनिधिसभायाः ह्यस्तनोपवेशे सांसदः जलवायु परिवर्तनस्य प्रभावात् प्राकृतिक विपत्तिषु वर्धमानासु समये एव गभीरतया ग्रहीतुं सर्वकारस्य ध्यानम् आकृष्टवन्तः। प्रतिनिधिसभायाः अपरोपवेशः परश्व रविवासरे पूर्वाह्नस्य एकादशवादने वस्ता। अद्य नेपालेपि विविधै कार्यक्रमै सह दशमः विश्वयोग दिवसः समायोज्यमानोऽस्ति। विश्वयोग दिवसस्य अवसरे योग दिवस मूल समारोह समित्या अद्य काष्ठमण्डपे विशेषः कार्यक्रमः समायोज्यते। संयुक्त राष्ट्रसंघेन 2000 ख्रैस्ताब्दे जून मासस्य एकविंश दिवस विश्व योग दिवसत्वेन उद्घुष्ट आसीत्। तत प्रतिवर्ष जून मासस्य एकविंशे दिवसे समग्रेपि विश्वे विश्व योग दिवस समायोज्यते। अत्रान्तरे राष्ट्रपति रामचन्द्र पौडेल भाषते योगम अधीयमानानां विश्वस्य अध्येतॄणां कृते नेपाल योगस्य मूल गन्तव्यं भवितुं शक्नोति। विश्व योग दिवसस्य अवसरे शुभकामना सन्देशं ददता राष्ट्रपतिना पौडेलेन विश्व योग दिवसेन योग परम्परां सर्वत्र व्यापिकां विधाय सर्वेषां कृते शारीरिक रूपेण मानसिक रूपेण च स्वास्थ्य लाभो भवेत् इति शुभकामना व्यक्ता अस्ति। एवमेव उपराष्ट्रपतिना रामसहाय प्रसाद यादवेन प्रधानमन्त्रिणा पुष्पकमल दाहाल प्रचण्डेन च विश्व योग दिवसस्य अवसरे शुभकामना प्रदत्ता वर्तते। नेपाली कांग्रेस दलस्य सभापति शेरबहादुर देउवा भाषते प्रत्यक्ष निर्वाचने महिलानां कृते पृथक स्थानस्य निर्धारणं समुचितं वर्तते। नेपाल महिला संघेन ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे सभापतिः देउवा देशे विद्यमानायाः समानुपातिक्याः समावेशिन्याश्च व्यवस्थया महिलानां कृते प्रत्येकं क्षेत्रेषु स्थानं दत्तमस्ति इति अभाषत। कार्यक्रमे नेपाली कांग्रेस दलस्य वरिष्ठ नेता डाक्टर शेखर कोइराला, महामन्त्री विश्वप्रकाश शर्मा, प्रवक्ता डाक्टर प्रकाश शरण महत्स, महिलाभि राजनैतिक सशक्तिकरणेन सहैव सामाजिक आर्थिक रूपेण आत्मनि सामर्थ्यम् आधातुम् बलम् दत्तवन्तः। नेकपा एकीकृत समाजवादी दलस्य अध्यक्ष माधव कुमार नेपाल निगदति देश विकासस्य जनेच्छाया सम्बोधनाय स्वदलेन सर्वकारेण सह सहकार्यं कृतमस्ति। महोत्तरी जनपदस्य वर्दीवास स्थाने समाजवादी प्रेस संघटनेन ह्य आयोजिते पत्रकार सम्मेलने अध्यक्ष नेपाल अगदत् निश्चितस्य उद्देश्यस्य कृते विहितेन सहकारेण निरन्तरता प्राप्स्यते। जनतायाः आवश्यकतायाः पूर्तये समृद्धे यात्राम् अग्रे नयनस्य उद्देश्येन सर्वकारेण सहकार्यं क्रियते इति चर्चयन् अध्यक्षो नेपालः सत्ता समीकरणे सहभागिषु दलेषु गहनस्य संवादस्य अभावं प्रति चिन्ताम् अभिव्यनत्। समाज कल्याण परिषद सप्तषु एव प्रदेशेषु विस्तार्यते। ह्य उपविष्टेन परिषद कार्यसमितेः उपवेशेन एवं निर्णीतमस्ति। महिला बाल बालिका ज्येष्ठ नागरिक मन्त्रिणः परिषद अध्यक्षस्य च भगवती चौधरी इत्यस्य अध्यक्षतायाम् उपविष्टेन उपवेशेन सर्वेषु प्रदेशेषु सेवाग्राहिभ्यः सेवा प्रवाहस्योद्देश्येन प्रदेशेष्वपि परिषद कार्यालयान् स्थापयितुं निर्णीतम् वर्तते। उपवेशेन परिषदम् इतोऽपि व्यवस्थितां विधातुम् अत्याधुनिक वैद्युत प्रविधिना संचालयितुं निर्णीतम् वर्तते। श्रमवृत्ति सामाजिक सुरक्षा मन्त्री डोलप्रसाद अर्यालः भाषते वैदेशिक वृत्ति कार्यालये प्रतिदिनं कोटिशो रूप्यकाणां भ्रष्टाचारस्य प्रमाणस्य प्राप्तेः कारणेन स्वयं सक्रियो भूत्वा एकघण्टाभ्यन्तरे एव श्रम स्वीकृतेः प्रणाली क्रियान्वितेति श्रम स्वीकृतेः प्रणाली क्रियान्विता वर्तते। संघीयता सबलीकरण राष्ट्रिय सम्बद्धता समितेः उपवेशे मन्त्री अर्यालः सेवाग्राहिणां वञ्चकेभ्यः संरक्षणाय प्रथम श्रम स्वीकृतेः एकघण्टाभ्यन्तरे प्राप्तेः प्रणाली प्रारब्धा अस्ति, सेवाग्राहिभ्यः उत्कोचग्राहिणो जनाः अपि दण्डन्ते इति असूचयत्। मन्त्री अर्यालः निःशुल्कं चिटिकापत्रस्य पारपत्रस्य च नाम्नि अब्जसो रूप्यकाणां अवैधानिक रूपेण व्यवहारो जायमानोऽस्तीति चर्चयन् तन्नियमनार्थं नीतिगतं पूर्वकार्यं विधीयमानम् अस्तीति अभाषत। गण्डकी प्रदेश सभायां नेकपा माओवादी केन्द्रस्य संसदीय दलस्य निर्देशनस्य विरुद्धे आत्मनः विरुद्धे विहितस्य दण्डनस्य विरुद्धे प्रदेश सभा सदस्य फणीन्द्र देवकोटा सर्वोच्च न्यायालये याचिकापत्रं पञ्जीकारितवान् अस्ति। गण्डकी प्रदेशस्य मन्त्री देवकोटा ह्य पञ्जीकृतायां याचिकायां आत्मने विहितं दण्डनम् अवैधानिकम् अस्तीत्यतः तस्य क्रियान्वयनं न विधातुं याचितवान् अस्ति। आगामिनं रविवासरं यावत् आराष्ट्रं वृष्टेः सम्भावना अस्तीति वातावरण पूर्वानुमान महाशाखया ज्ञापितं वर्तते। सम्प्रति वर्षाः पूर्वभूभागात् लुम्बिनी प्रदेशं यावत् प्राप्ताः सन्ति। पश्चिमवातस्य प्रभावस्य कारणात् सुदूरपश्चिमक्षेत्रे पश्चिमक्षेत्रे च वर्षायाः विस्तारे अधिकः समयः जातोऽस्तीति महाशाखायाः वातावरणविद् प्रतिभामानन्धर असूचयत्।